इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः विस्तरेण। जम्मूकश्मीरे विधानसभा निर्वाचनस्य तृतीयाय अन्तिमाय च चरणाय प्रचाराभियानं सजवं प्रवर्धते। जम्मूकश्मीरे एतस्मिन् अन्तिम चरणे चत्वारिंशत् विधानसभाक्षेत्रेभ्यः मंगलवासरे मतदानं भविष्यति। मतदातृन् आक्रष्टुं विभिन्नानां राजनीतिक दलानां नेतारः जनसभाः पथ प्रदर्शन्यः च कुर्वन्ति। भाजपेति दलस्य वरिष्ठ नेता प्रधानमन्त्री नरेन्द्र मोदी अद्य जम्मूकश्मीर नगरे एकं जनसमागमं सम्बोधयिष्यति। कांग्रेस दलनेत्री प्रियंका गांधी अद्य केन्द्रशासिते एतस्मिन् प्रदेशे जनसभाः सम्बोधयिष्यति। तत्रैव हरियाणायां 90 विधानसभासनेभ्यः मतदानं अक्टूबर मासस्य पञ्चम दिनांके सुनिश्चितमस्ति। राज्ये अस्मिन् अपि प्रचाराभियानं तीव्रं जातम्। राष्ट्रपति पदासीना द्रौपदी मुर्मू अद्य तेलंगानायाः यात्रायां भविष्यति। एकदिवसीय यात्रावधौ राष्ट्रपति हैदराबाद नगरे नालसार विधि विश्वविद्यालयस्य एकविंशतितमे दीक्षांत समारोहे भागं भजिष्यति। सा सिकन्दराबादस्य राष्ट्रपति निलयम् इत्यत्र भारतीय कला महोत्सवस्य उद्घाटनम् अपि करिष्यति। अष्टदिवसीयः कला महोत्सवः अरुणाचल प्रदेश, असम, मणिपुर, मेघालय, मिजोरम, नागालैंड, सिक्किम, त्रिपुरा राज्याणां च कला, संस्कृतिः, शिल्पम्, पाकवैविध्यं च प्रदर्शयिष्यति। भारतीय रेलवे दुर्गापूजा, दीपावली, छठ पूजायाः च कृते आगामि उत्सवऋतौ अक्टूबर मासस्य प्रथम दिनादारभ्य नवम्बर मासस्य 30 दिनांकपर्यन्तं 6,000+ विशेष रेलयानानि चालयिष्यति। प्रतिवर्षं भारतीय रेलवे उत्सवकाले विशेष रेलयानानि चालयति, येन लक्षशः यात्रिणां यात्रा सुलभा भवति। विगतेभ्यः वर्षेभ्यः अपेक्षया अस्मिन् वर्षे विशेष रेलयानेषु उल्लेखनीय वृद्धिः अभवत्। गतवर्षे अस्मिन् काले 39,400+ विशेष रेलयानानि प्रचालितानि आसन्। संयुक्तराष्ट्रसंघस्य सुरक्षा परिषदि UNSC इत्यस्मिन् स्थायीपदस्य कृते भारतस्य पक्षे समर्थनं दत्त्वा ब्रिटेनस्य प्रधानमन्त्री कीर स्टार्मरः अपि अमेरिका फ्रांस देशयोः नेतृभिः सह सम्मिलितः अस्ति। न्यूयॉर्क नगरे UNGA इति संयुक्त राष्ट्र संघस्य महासभायाः 79वें अधिवेशने सम्बोधयन् स्टार्मर महोदयः वैश्विक बहुपक्षीय व्यवस्थाम् अधिकं प्रतिनिधिं प्रतिक्रियाशीलं च कर्तुं सुधारस्य आह्वानम् सः अफ्रीका, ब्राजील, जापान, जर्मनी देशानां सुरक्षा परिषदि स्थायी पदानि समेत्य निर्वाचित सदस्यानां कृते अधिकानां आसनानां च समर्थनम् अपि अकरोत्। वित्त मन्त्रालयेन प्रकाशितायाम् अगस्त मासस्य स्वीयायां मासिक आर्थिक समीक्षायां निगदितं यत् राष्ट्रं प्रवर्तमाने वित्तीय वर्षे 6.5%-7% यावत् सकल गृहोत्पादस्य वृद्धिं प्राप्तुं सज्जमस्ति। प्रतिवेदने लिखितं यत् प्रथमे त्रैमासिके आर्थिक गतिः समेधमाना आसीत्, या सर्वेषु कृषेत्तर क्षेत्रेषु 5% यावत् वृद्धि समर्थनम् अमिलत्। बैडमिंटन क्रीडायां ह्यः मकाऊ ओपन क्रीडायाः उपान्त्यचक्रीय क्रीडायां त्रिशा जॉली गायत्री गोपीचन्दयोः महिला युगलः ताइवान देशस्य हासी पेई शान हांग्स एन सु इत्येतौ सम्मुखी करिष्यतः। भारतीय मानक समयानुसारं प्रातः 55:50 अस्याः क्रीडायाः आरम्भो भविष्यति इति वार्ताः।